नमस्कारः सर्वेषां। तर्हि सम्प्रति अभावः इति विषयः प्रचलति, तत्र गतवर्गे अस्माभिः किं किं दृष्टम् इति किञ्चित् स्थूलरीत्या वदामि। तत्र गतवर्गे तु अस्माभिः अभावः त्रिविधः इति दृष्टः, खलु? सामान्याभावः, विशेषाभावः, विशेषविशेषाभावः इति। सामान्याभावस्य उदाहरणमासीत् जलाभावः इति। जलाभावस्य प्रतियोगी नाम जलाभावं यः निवारयितुं शक्नोति सः प्रतियोगी इति वदामः। प्रतियोगी तु जलमेव। विशेषाभावः इत्यत्र वृष्टिजलाभावः इति उदाहरणं। वृष्टिजलाभावस्थले सामान्यजलेन अभावं निवारयितुं न शक्यते, तदर्थं वृष्टिजलमेव अपेक्षितम् इति कृत्वा वृष्टिजलं प्रतियोगी। अपि च विशेषविशेषाभावः इति अन्यः एकः अभावः, तत्र उदाहरणमासीत् स्वातिनक्षत्रीयवृष्टिजलाभावः इति। तर्हि स्वातिनक्षत्रीयवृष्टिजलाभावस्थले अभावं निवारयितुं स्वातिनक्षत्रीयवृष्टिजलमेव आवश्यकं, न तु वृष्टिजलं न वा सामान्यजलम् इति कृत्वा स्वातिनक्षत्रीयवृष्टिजलमेव तस्य अभावस्य प्रतियोगी इति कृत्वा त्रिषु स्थलेषु प्रतियोगी भिन्नमस्ति। एकत्र सामान्यजलम्, अपरत्र वृष्टिजलम्, इतोपि अपरत्र स्वातिनक्षत्रीयवृष्टिजलम् इति। तर्हि तादृश्यां स्थित्यां प्रतियोगिता भिन्ना भवति। जले विद्यमाना प्रतियोगिता भिन्ना, वृष्टिजले विद्यमाना प्रतियोगिता भिन्ना, अपि च स्वातिनक्षत्रीयवृष्टिजले विद्यमाना या प्रतियोगिता सा भिन्ना इति वयं दृष्टवन्तः। तर्हि एका प्रतियोगिता अपरस्याः भिन्ना कथम् इति साधयितुं शक्नुमः इति प्रश्नः। तदर्थम् अवच्छेदकत्वपदार्थवर्णनम् इत्यस्मिन् भागे विवरणं दत्तमासीत्। तत्र एकविंशतितमपृष्ठं पश्यन्तु। आरम्भे उक्तमस्ति त्रयाणाम् एषां जलमेव प्रतियोगी। त्रयाणाम् इत्युक्ते मया ये अभावाः उक्ताः अधुना, तेषां त्रयाणां जलमेव प्रतियोगी। परन्तु एका प्रतियोगिता जलनिष्ठा, अपरा तु वृष्टिजलनिष्ठा, अपरा तु स्वातिनक्षत्रीयवृष्टिजलनिष्ठा अस्तु इति कृत्वा तत्र परस्परं भेदः वर्तते एव इति आनुभविकः विचारः, परस्परभेदः अस्ति इति। किन्तु न्यायदृष्ट्या, शास्त्रीयरीत्या कथं भेदं साधयितुं शक्नुमः इति विषये आगते सति तत्र अवच्छेद्य अवच्छेदकभावः इति विषयः आगच्छति। अवच्छेद्य अवच्छेदकभावः इत्यत्र अवच्छेदकम् इत्युक्ते यद् अवच्छेदयति, यथा गायकः गायति तद्वद् अवच्छेदकम् अवच्छेदयति इत्युक्ते भिन्नतां प्रदर्शयति। अवच्छेद्यम् इति यत् पदमस्ति तत् तादृशवस्तु यस्मिन् भिन्नता वर्तते। क्षम्यतां, तर्हि अवच्छेदकं किमपि अवच्छेद्यम् अवच्छेदयति इति वार्ता। तत्र अवच्छेद्यवच्छेदकभावः इति आगतः आसीत्। तर्हि इतः अग्रे सरेम, एवं कुर्मः, कोऽपि अस्ति वा?
आम्, अहं भानुचैतन्य अस्मि।
नमस्कारः महोदय।
महोदय, एकं प्रश्नमस्ति। अवच्छेद्यम् इत्युक्ते सीमितं वा इति सरलतया ज्ञातुं शक्नोति वा?
सीमितम् इत्यस्य अर्थः कः भवतः मनसि?
सीमितम् इत्युक्ते व्याप्ति किञ्चित् एव।
अस्तु, भवान् पृच्छति अवच्छेदकस्य अपेक्षया इति वा? तथा तादृशविचारः अत्र नास्ति महोदय। अत्र तु केवलम् अवच्छेद्यम् इत्युक्ते छिद् इति धातुः अस्तु। छिद् इत्युक्ते खण्डनं करोति, छेदयति, पृथक् करोति, तादृश अर्थः। तर्हि
अतः एव लिमिटेड् इति भावं न वा
न न न लिमिटेड् इति न छिद् इत्युक्ते पृथक्करणं तावदेव छेदयति अथवा छिनत्ति इत्युक्ते पृथक् करोति भेदं भिन्नं करोति तथा तर्हि यः कोऽपि भिन्नं करोति सः अवच्छेदकः अथवा नपुंसकलिङ्गे अवच्छेदकं यं कमपि भिनत्ति तद् अवच्छेद्यम् इति वक्तुं शक्नुमः अथवा सः अवच्छेदकः इति पुल्लिङ्गे अवच्छेदकः इत्युक्ते वन् दट् सपरेट्स् अवच्छेद्यम् इत्युक्ते वन् दट् इस् सपरेटेड् तावदेव यथा क्षीरस्य उदाहरणे अस्तु महोदय भवान् गतवर्गे अपि आसीत् खलु तर्हि किञ्चित् स्मरति इति एकविंशतितमे पृष्ठे अन्तिमपरिच्छेदं पश्यतु इदानीं किं तेन इति अस्ति खलु तस्मात् आरभ्य पठतु
इदानीं किं तेन योग्येन पात्रेण कृतम् द्रोणपञ्चकपरिमितं क्षीरं बृहत्पात्रगतक्षीरात् पृथक् कृतम् पात्रस्थं क्षीरं दृष्ट्वा एवम् अवगच्छामः इदं क्षीरम् अन्यस्मात् क्षीरात् भिन्नम् केन एव अस्माभिः अवगतं पात्रेण तद्धि पृथक् करोति इदं क्षीरम् अन्यत् इति बोधयति इति पात्रं क्षीरस्य अवच्छेदकं क्षीरञ्च अवच्छेद्यं भवति क्षीरे अवच्छेद्यता पात्रे च अवच्छेदकता तयोः निरूप्य निरूपकभावः
अधुना खण्डशः पठित्वा पुनः वदतु महोदय
इदानीं किं तेन योग्येन पात्रेण कृतम् उपरि एकम् उदाहरणं दत्तं तत्र द्रोणमेकम् अस्ति तथापि पुरतः एकं पात्रमपि स्थापयति विक्रेता तस्मिन् पात्रे क्षीरं समर्पयति
हा समीचीनं महोदय वदतु
द्रोणपञ्चकपरिमितं क्षीरं बृहत्पात्रगतक्षीरात् पृथक् कृतं यत् द्रोणं पात्रं पुरतः अस्ति तत्र यः क्षीरं सः स्थापयति तत् क्षीरं बृहत्पात्रात् क्षीरम् एतद्वयं भिन्नम् एतद्वयं पृथक् करोति
इत्युक्ते विक्रेतुः समीपे विक्रेतुः विक्रेतृ इति ऋकारान्त पितुः इव षष्टिविभक्ति विक्रेतुः समीपे बृहत् पात्रमस्ति खलु बृहत् पात्रे क्षीरम् अस्ति अपि च यः क्रीणाति क्रेतुं गच्छति क्रेता तस्य समीपे द्रोणपञ्चकपरिमितं क्षीरं स्थापयितुं यद् पात्रम् आवश्यकं तदस्ति तर्हि पात्रद्वयमस्ति द्रोणपञ्चकपरिमितमेकम् अपरं तु बृहत् तर्हि उभयोः मध्ये क्षीरम् अस्ति न वा अस्ति केवलं क्षीरं दृष्ट्वा वयं वक्तुं शक्नुमः वा एतत् क्षीरम् अपरस्मात् भिन्नम् इति
न न न न एतदपि क्षीरं तदपि क्षीरमेव पात्रं दृष्ट्वा वक्तुं शक्यते
हा बहु समीचीनं महोदय पात्रं दृष्ट्वा वक्तुं शक्नुमः एकं क्षीरम् अपरस्माद् भिन्नम् इति अस्तु
एकः प्रश्नः आसीत् घटद्वयम् अस्ति चेत् कथं भेदनिरूपणं भेदनिरूपणः करणीयः उत्तमं पूर्वत्वे स्थानभेदं न पश्येम तस्य वर्णभेदः न पश्येम बृहत् वा लघु अपि न पश्येम अवयभेदः एव अवयभेदेन एव निरूपणं कुर्याम इति अत्रापि क्षीरस्य खण्डनं कृत्वा कृत्वा भेदनिरूपणं कर्तुं शक्नुमः. किमर्थं पात्रभेद पात्रं पश्यामः?
कथं कथम् इति वदतु किञ्चित्. इत्युक्ते क्षीरम् इति मिल्क् इति अस्ति खलु,
क्षीरस्य खण्डनं कृत्वा कृत्वा परमाणुपर्यन्तं गच्छतु, परमाणु
हा. परन्तु महोदय तत्र घटः, घटस्य उदाहरणं ददामि. अस्तु, घटद्वयम् अस्ति, घटद्वयम् अस्ति, उभौ अपि रक्तघटौ इति चिन्तयतु, रक्तवर्णीयौ घटौ. अस्तु, तत्र दर्शनेन भेदः किमपि न दृश्यते. समानः आकारः, किं समानं परिमाणं, तादृशं घटः, तादृशः घटः. परन्तु न्यायशास्त्रशैल्या वदामश्चेत् तत्र अवयवभेदात् घटद्वयं भिन्नम् इति वदामः. तावदेव वार्ता. नो चेत् आनुभविकतया यदि एकत्र रक्तघटः अस्ति, अपरत्र नीलघटः अस्ति चेत् आनुभविकतया एव ज्ञातुं शक्नुमः खलु. स्थानभेदन दृष्ट्वा एव प्रत्यक्षप्रमाणं भवति खलु. एकः घटः अपरस्मात् भिन्नः इति प्रत्यक्षप्रमाणमेव भवति. स्थानभेदः इति अपि एकमस्ति, समीचीनमेव. किन्तु अहं किं वदामि इति चेत् एकत्र
पूर्वे उक्तवन्तः स्थानभेदः न कुर्यामः.
न, स्थानभेदेन आनुभविकतया ज्ञातुं शक्नुमः इति करपत्रे लिखितमासीत्. अहं स्मरामि, करपत्रे तथा लिखितमासीत्. परन्तु स्थानभेदे सत्यपि कथं वक्तुं शक्नुमः एकः घटः अपरस्मात् भिन्नः इति चेत् उभयोः घटयोः अवयवाः भिन्नाः इति कारणेन. न्यायशास्त्रे तथा अस्ति, सर्वं भिन्नम् अपरस्मात् यतोहि अवयवभेदात् इति. परन्तु अत्र विचारः किञ्चित् भिन्नः. क्षीरं तु समानम् एव दृश्यते खलु, श्वेतवर्णीयं क्षीरं, श्वेतवर्णीयं जलमस्ति, तावदेव. हा, भवान् यद्वदति तत् समीचीनमेव. खण्डनार्थम् अनुभवेन तथा कर्तुं शक्नोति वा, अनुभवेन परमाणुं द्रष्टुं शक्नोति वा इति वार्ता, न खलु? इदानीं क्षीरम् इति अस्ति भवतः पुरतः खलु. केवलं क्षीरं पश्यति चेत् श्वेतवर्णीयं किमपि जलम् अस्ति इति पश्यति, तावदेव. अनुभवरीत्या उभयोः क्षीरयोः मध्ये भेदः कुत्र वर्तते इति चेत् पात्रभेदेन भेदः इति वक्तुं शक्यते. भवान् यद्वदति अस्तु एकस्य क्षीरस्य अवयवः भिन्नः अपरस्य अवयवः भिन्नः इति सत्यमेव, न्यायदृष्ट्या यदुक्तं तत् सत्यमेव. किन्तु अत्र विचारः किञ्चित् भिन्नः. आनुभविकरीत्या क्षीरं दृष्ट्वा नितरां न वक्तुं शक्यते यद् एकं क्षीरम् अपरस्मात् भिन्नम् इति. पात्रभेदेन क्षीरभेदम् इति उदाहरणं, तावदेव. अस्तु
अस्तु
अस्तु, भानुचैतन्य महोदय अग्रे गच्छतु.
एवमेव उक्तं, पात्रस्य क्षीरं दृष्ट्वा एव एव अवगच्छामः इदं क्षीरम् अन्यस्मात् क्षीरात् भिन्नं. केन एव अस्माभिः अवगतम् इत्युक्ते पात्रेण. तत् पृथक् करोति, पात्रस्य क्षीरम् अन्यं, द्रोणस्य क्षीरम् अन्यम् इति. इदं क्षीरम् अन्यत् इति बोधयति इति पात्रं क्षीरस्य अवच्छेदकम्. क्षीरं पात्रं द्वयम् अस्ति द्रव्यं, क्षीरस्य अवच्छेदकं पात्रम्, क्षीरं च अवच्छेद्यं भवति. क्षीरं तथा क्षीरं किं भवति? क्षीरं तु अवच्छेद्यं, पात्रं तु अवच्छेदकम् इति नाम. क्षीरे अवच्छेद्यता अस्ति, पात्रे च अवच्छेदकता अस्ति. तयोः मध्ये निरूपकभावः अस्ति.
हा, समीचीनं महोदय, तत्र कोऽपि क्लेशः नास्ति इति भाति. यथा अधिकरणे अधिकरणता, तद्वद् अवच्छेदके अवच्छेद्यता इति तल् प्रत्ययः, अवच्छेद्ये अवच्छेद्यता. अपि च निरूप्यनिरूपकभावः कुत्र वर्तते?
पात्रे क्षीरे
न निरूप्यनिरूपकभावः कयोः मध्ये वर्तते. प्रश्नः किञ्चित् भिन्नरीत्या, कयोः मध्ये निरूप्यनिरूपकभावः वर्तते?
अवच्छेदकता अवच्छेद्यता मध्ये किम्?
हा समीचीनं, यतोहि अवच्छेदकता अपि च अवच्छेद्यता कीदृशपदार्थौ? ससम्बन्धिक उपदार्थौ इति वयं पूर्वं दृष्टवन्तः खलु. ससम्बन्धिकपदार्थद्वयमस्ति चेत् तयोः मध्ये अवच्छेदकता अवच्छेद्यता यथा अत्र अस्ति, तयोः मध्ये निरूप्यनिरूपकभावः वर्तते इति. बुद्धं वा? सर्वदा सर्वदा हारिज़ोंटल् एरो तिरश्चीनशरः यत्र गच्छति तत्र निरूपिता इति स्थापयामः खलु, तत्र सर्वदा ससम्बन्धिकपदार्थद्वयं भवति. अवच्छेदकता अवच्छेद्यता अथवा अधिकरणता अधेयता प्रतियोगिता अनुयोगिता यत्किमपि भवतु, ससम्बन्धिकपदार्थद्वयं. ससम्बन्धिकौ इत्युक्ते तयोः मध्ये कश्चन सम्बन्धः अस्ति, अपि च साकाङ्क्षापदार्थौ इत्युक्ते एकं ज्ञात्वा अपरं ज्ञातुं जिज्ञासा उदेति, तादृशपदार्थौ इति. अस्तु, चित्रं निरूपयतु महोदय.
पात्रम् अवच्छेदकता, तत्
निष्ठा आश्रयः महोदय, निष्ठा अवच्छेद्यता उपयुज्य कथं वदति?
सहायं करोतु भवती.
अस्तु, तत्र श्रीधर् महोदय, तत्र श्रीधर् महोदय साहाय्यं करोति वा?
हा करोमि. पात्रनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आशयः क्षीरम्.
अनन्तरं
क्षीरनिष्ठ अवच्छेद्यता निरूपित अवच्छेदकता वान् पात्रम्.
पात्रं, हा समीचीनं महोदय. इति एव भानुचैतन्यमहोदय, बुद्धं वा? उपरिगमनार्थं निष्ठ इति स्थापयतु. पात्रनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रयः अथवा अवच्छेद्यतावत् क्षीरम् अथवा क्षीरनिष्ठ अवच्छेद्यता निरूपित अवच्छेदकतावत् पात्रं, तावदेव. यत्र पूर्वमपि वयं दृष्टवन्तः बहुत्र, पश्यतु पूर्वस्मिन् पुटे अपि वृष्टिजलं निष्ठा प्रतियोगिता पश्यति वा तत्र? हा तद्वदेव. उपरि गमनार्थं निष्ठा, अधोगमनार्थम् आश्रयः इति. अस्तु,
आम्, क्षीरं निष्ठा अवच्छेद्यता निरूपकः अवच्छेदकता तस्य आश्रयं पात्रम्.
हा निरूपकः न निरूपित इति वक्तव्यं, यतोहि अवच्छेद्यता निरूपिका अवच्छेद्यतया अवच्छेदकता निरूपिता अस्ति. अस्तु, इति निरूपित इति वक्तव्यम्. अस्तु, तर्हि अग्रे सरेम. हा समीचीनं, सरला भगिनी अग्रे पठति वा?
आं भगिनि, इदानीं शास्त्रे एतादृश अवच्छेद्या अवच्छेदकभाव किं प्रयोजन इति पश्यामः. भावानां समानाभाव विशेषाभाव विशेषविशेषाभाव इत्ययं विभागः अनुपदं क्षम्यतां भगिनि, एव अस्माभिः चिन्तितः. जलसामान्याभावस्य प्रतियोगिता सर्वस्मिन् जले, वृष्टिजलाभावस्य वृष्टिजले, स्वातिनक्षत्रियवृष्टिजलभावस्य च प्रतियोगिता स्वातिनक्षत्रियवृष्टिजले इति तत्र स्थितं. तासां प्रतियोगितानाम् अस्ति भेदः. जलाभावनिष्ठ अनियोगिता निरूपितप्रतियोगिता जलनिष्ठा अन्या, वृष्टिजलाभावनिष्ठा अनियोगिता निरूपिता प्रतियोगिता वृष्टिजलनिष्ठा ततो भिन्ना. एवं तृतीया अपि परन्तु सः भेदः कथं ज्ञायते? खण्डश पठामि. इदानीं शास्त्रे एतादृश अवच्छेद्यावच्छेदकभावस्य किं प्रयोजनम् इति पश्यामः. अवच्छेद्य और अवच्छेदक तयोर्मध्ये यः निरूप्य निरूपकभावः अस्ति तस्य प्रयोजनं किम् अस्ति इत्यस्य विवरणम् अस्ति. अभावानां समान्याभावविशेषविशेषाभाव इत्ययं विभागः वयं दृष्टवन्तः. त्रयप्रकाराः अभावः अस्ति. एकं समान्याभावः यथा कूपजल मत्स्यस्य जलाभावः किमपि जलं जलाभावस्य पूरणं
करोति. तदुक्तमेव सामान्याभावस्य उदाहरणं जलाभावः.
विशेषाभावः यथा स्वातिनस्य विशेष स्वातिनस्य वृष्टिजलाभावः त्रयविभागाः अस्ति. एतस्मिन् एव अस्माभिः चिन्तितः जलासामान्यभावस्य प्रतियोगिता सर्वस्मिन् जले. त्रयो जलः सामान्यजल वृष्टिजल अपि स्वातिनस्य जल त्रय जलस्य प्रतियोगिता भवति जलसामान्यभावः प्रति. वृष्टिजलाभावस्य वृष्टिजले अस्ति. प्रत्येकजलभावस्य अभावस्य वृष्टिजलाभावस्य प्रतियोगिता वृष्टिजले अस्ति. स्वातिनस्य वृष्टिजलाभावस्य प्रतियोगिता स्वातिनस्य वृष्टिजले अस्ति. एकस्मिन् प्रत्येक जले एकमेकं प्रतियोगिता अस्ति. तासां प्रतियोगितानाम् अस्ति भेदः. प्रत्येकयोगिता अन्या प्रतियोगितायां तयोः मध्ये भेदः अस्ति. जलाभावनिष्ठ अनियोगिता निरूपित प्रतियोगिता जलानिष्ठ अन्या. यदि जलाभाव अनियोगिता अस्ति तस्य ता निरूपिता जलनिष्ठ प्रतियोगिता अस्ति तत्र. किन्तु वृष्टिजलाभावनिष्ठ अनियोगिता निरूपिता वृष्टिजलनिष्ठा प्रतियोगिता भवति. प्रत्येकजलस्य प्रत्येकभावस्य या नियोगिता अस्ति तस्य प्रतियोगिता भिन्ना जलनिष्ठा अस्ति यथा वयम् इदानीम् उक्तवन्तः. तथैव स्वातिनक्ष्य जलाभावस्य अनियोगिता निरूपिता स्वातिनक्ष्य जलेन अस्ति.
हा हा समीचीनं भगिनि. तर्हि सर्वैः बुद्धं वा विचारः कः इति?
अत्र प्रश्न उदेति कथं प्रत्येक प्रतियोगिता अन्या प्रतियोगिता तयोर्मध्ये भिन्नं कर्तुं शक्नुमः. भेदं कथं ज्ञायते इति प्रश्नः आगच्छति.
समीचीनं भगिनि. इति एव अस्ति यथा भगिन्या उक्तं प्रथम उदाहरणे जलाभावनिष्ठ अनियोगिता निरूपितप्रतियोगिता. सा प्रतियोगिता जलनिष्ठा भिन्ना अस्ति. वृष्टिजलाभावनिष्ठानुयोगिता निरूपितप्रतियोगिता भिन्ना. कथं ज्ञायते इति प्रश्नः. तदर्थम् अवच्छेद्य अवच्छेदकभावस्य आवश्यकता अस्ति. तर्हि तस्य प्रयोजनं कथं भवति इति अग्रे सरेम. अग्रे गत्वा द्रष्टुं शक्नुमः. कोऽपि प्रश्नः वा? अस्तु, अग्रे राधिका भगिनी पठति वा?
आम्. यद्यपि स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले एव न अन्यस्मिन् जले. वृष्टिजल अभावस्य प्रतियोगिता वृष्टिजले एव न तु अन्यस्मिन् जले इति प्रतियोगितयोः आश्रयोः उभयत्र भिन्नौ. अतः आश्रयभेदात् प्रतियोगितभेदः ज्ञातुं शक्यः। तथापि जलं नास्तीति सामान्य अभावस्य प्रतियोगिता यथा कूपजले वर्तते तथा वृष्टिजलेऽपि वर्तते, स्वातिनक्षत्रीयवृष्टिजलेऽपि वर्तते इति प्रतियोगितायाः आश्रयाः सर्वाणि जलानि भवन्ति। अतः आश्रयभेदेन प्रतियोगिताभेदं न साधयितुं प्रभवाम। विचारमेनं चित्ररूपेण पश्यामः। अस्तु, यद्यपि स्वातिनक्षत्रीयवृष्टिजल अभावस्य प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले एव न अन्यस्मिन् जले, स तु वयं दृष्टवन्तः यदि विशेष अभावः अस्ति चेत् तत् तादृशमेव भवति। स्वातिनक्षत्रीयवृष्टिजल अभावः स्वातिनक्षत्रीयजले एव कर्तुं शक्नुमः। वृष्टिजल अभावस्य वृष्टिजल अभावस्य प्रतियोगिता वृष्टिजले एव, तादृशमेव। इदानीं वयं दृष्टवन्तः आश्रयः मुख्यः इति, तत्र एव वयं भिन्नः कर्तुं शक्नुमः। अतः आश्रयभेदात् एव प्रतियोगिताभेदः ज्ञातुं शक्यः। तथापि जलं नास्तीति सामान्य क्षम्यतां
इतोपि किञ्चित् वदतु, तत्र प्रथमप्रतियोगितायाः आश्रयः कः?
स्वातिनक्षत्रीय वृष्टिजल अभावस्य प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजल
वृष्टिजले, तर्हि तस्य आश्रयः कः?
जले, आम् आम् वृष्टिजले एव,
स्वातिनक्षत्रीयवृष्टिजलम् इति आश्रयः।
आम्,
द्वितीयस्थले आश्रयः कः?
द्वितीयस्थले यदि वृष्टिजल अभावस्य इति पश्यामश्चेत् वृष्टिजले एव प्रतियोगिता अस्ति।
वृष्टिजले एव अस्ति, यथा क्षीरम् आसीत् खलु, लघुपात्रे यद् क्षीरमासीत् तस्य आश्रयः लघुपात्रं, बृहत् पात्रे यद् क्षीरमासीत् तस्य आश्रयः बृहत् पात्रम्। तर्हि अत्र प्रश्नः अस्ति, अस्तु आश्रयभेदात् एव प्रतियोगिताभेदः ज्ञातुं शक्यः खलु इति, परन्तु किम्?
तथापि जलं नास्ति इति सामान्य अभावस्य प्रतियोगिता यथा कूपजले वर्तते तथा वृष्टिजलेऽपि वर्तते, स्वातिनक्षत्रीयवृष्टिजलेऽपि वर्तते इति प्रतियोगितायाः आश्रयाः सर्वाणि जलानि भवन्ति। यदि जलाभावः इत्येव वयं पश्यामश्चेत् कूपजलमपि कूपजले अपि अथवा वृष्टिजले अपि अथवा स्वातिनक्षत्रीयवृष्टिजले अपि प्रतियोगिता तु सर्वेपि आश्रयः तिष्ठतुं शक्यते, धन्यवादः भगिनि, स्थातुं शक्यते। अतः आश्रयभेदेन प्रतियोगिताभेदं न साधयितुं प्रभवामः। इदानीम् एतस्मिन् उदाहरणे तु प्रतियोगिताभेदः आश्रयभेदेन वयं प्रतियोगिताभेदं न साधयितुं शक्नुमः। किमर्थम् इत्युक्ते यदि जल अभावः इति एव वयं पश्यामश्चेत् कूपजलम् अथवा वृष्टिजलम् अथवा स्वातिनक्षत्रीयवृष्टिजलं किमपि सर्वे जलमपि प्रतियोगिता समानमेव भवति।
हा, प्रतियोगिता सर्वेषु जलेषु वर्तते खलु इति कृत्वा तत्र प्रतियोगितायाः आश्रयः सर्वाणि जलानि भवन्ति इति कृत्वा आश्रयभेदेन कथं प्रतियोगिता भिन्ना इति वक्तुं शक्यते। सा एव प्रतियोगिता सामान्यजलं जलाभावं निवारयति इति, सामान्यजलाभावे विद्यमाना या अनुयोगिता तया निरूपिता खलु। तर्हि आश्रयभेदेन कथं ज्ञायते इति, वस्तुतः इतोपि समीचीनतया ज्ञातुम् एकम् उदाहरणं ददामि। अस्तु, एकः बालकः अस्ति, बालके बालकत्वम् अस्ति, अपि च बालकः मनुष्यः अपि, तर्हि बालके मनुष्यत्वम् अस्ति, बालकः छात्रः अपि, बालके छात्रत्वम् अस्ति, तर्हि बालकः मनुष्यः छात्रः इति एकः एव जनः, कस्यचित् दृष्ट्या बालकाभावः अस्ति, कस्यचित् दृष्ट्या मनुष्याभावः अस्ति, अपरस्य दृष्ट्या छात्राभावः अस्ति इति चिन्तयतु, तर्हि तत्र कति अभावाः सन्ति?
त्रयः.
त्रयः अभावाः सन्ति, अपि च यस्य यस्य दृष्ट्या बालकाभावः अस्ति तस्य दृष्ट्या बालकत्वम् इति अपेक्षितं निवारयितुं, तर्हि बालकस्य अनयनेन निवारयति, सा प्रतियोगिता कुत्र वर्तते? बालके.
बालके,
हा. अपि च एवमेव मनुष्याभावः इति यः कोऽपि चिन्तयति चेत् तस्य दृष्ट्या मनुष्यत्वं यस्मिन् कस्मिन्नपि अस्ति सः आवश्यकः, अयमेव बालकः आगच्छति चेत् तदा अपि अभावः निवारितः भवति. पुनः छात्राभावः इति यस्य दृष्ट्या भवति, अयं बालकः छात्रः अपि, सः आगच्छति चेत् छात्राभावः गच्छति, तर्हि अभावत्रयमस्ति अत्र. प्रतियोगिताः कति तर्हि?
त्रयः.
त्रयः खलु, त्रयः अभावाः, त्रयः प्रतियोगिताः, प्रत्येकम् अभावस्य विरोधि प्रतियोगिता इति कृत्, क्षम्यतां, तिस्रः प्रतियोगिताः स्त्रीलिङ्गे. अस्तु, तर्हि त्रयः अभावाः, तिस्रः प्रतियोगिताः, परन्तु तिसृणामपि प्रतियोगितानाम् आश्रयः कः?
बालके एव.
हा, सः एव बालकः अथवा सः एव मनुष्यः, सः एव आश्रयः छात्रः, एकः एव आश्रयः प्रतियोगिता त्रयम् इति आगतं खलु. अनेन ज्ञातुं शक्नुमः यत् केवलम् आश्रयभेदेन प्रतियोगिताभेदं ज्ञापयितुं न शक्यते, इतोपि किञ्चित् आवश्यकं भेदं ज्ञापयितुम्, इतोपि किञ्चित् आवश्यकं, तद् किम् इति अग्रे पश्येम. सर्वैः बुद्धः? कोऽपि प्रश्नः अत्र? अस्तु, किमपि न अवगच्छन्ति चेत् कृपया हा पृच्छन्तु. श्रीधर् महोदय,
सामान्यजलं बृहत् अस्ति, विस्तृजलं बृहत् नास्ति, स्वातिनक्षत्रीयवृष्टिजलं लघु अस्ति, आश्रयभेदः अस्ति न, आश्रय सैज् मध्ये भेदः अस्ति.
महोदय,
वृष्टिजलं सब्सेट् अस्ति,
स्वातिनक्षत्रीयवृष्टिजलं
फर्दर् सब्सेट् अस्ति, सो समानं नास्ति, आश्रयभेदः भवतः भवति एव.
महोदय, यद् मया उक्तम् अधुना उदाहरणं, तेन तया दृष्ट्या चिन्तयतु, मनुष्यः इति सूपर् सेट् खलु, बालकः इति तस्मिन् सब्सेट्, अस्तु, अपि च छात्रः इति तस्मिन्नपि सब्सेट् इति. इदानीं यः कोऽपि वदति स्वातिनक्षत्रीयवृष्टिजलाभावः इति वदति चेत् तत्र केवलं स्वातिनक्षत्रीयवृष्टिजलमेव अपेक्षितम्, परन्तु जलाभावः इति वदति चेत् जलाभावेन जलाभावस्य निवारणार्थं स्वातिनक्षत्रीयवृष्टिजलमपि पर्याप्तं, वृष्टिजलमपि पर्याप्तं, किल? हा, अधुना तथा चिन्तयतु, अधुना सा एका एव प्रतियोगिता सर्वत्र अस्ति, वृष्टिजले अस्ति, स्वातिनक्षत्रीयवृष्टिजले अस्ति, सामान्यजले अपि अस्ति, एका एव प्रतियोगिता खलु, तर्हि आश्रयभेदेन प्रतियोगिता भिन्ना इति कथं वक्तुं शक्यते इति प्रश्नः. तदर्थमेव अस्मिन् उदाहरणे किञ्चित् क्लेशः वर्तते, तदर्थमेव अहं बालकस्य उदाहरणं दत्तवती, आश्रयः बालकः, किन्तु कस्यचित् दृष्ट्या मनुष्याभावः चेत् तस्य प्रतियोगिता बालके एव अस्ति, कस्यचित् दृष्ट्या बालकाभावः चेत् तस्य प्रतियोगिता बालके एव अस्ति, पुनः अपरस्य दृष्ट्या छात्राभावः चेत् तस्य प्रतियोगिता बालके एव अस्ति. तद्वत् जलस्य विषये चिन्तयतु. कस्यचित् दृष्ट्या जलाभावः इति चेत् सामान्यजले न क्षम्यताम् हा स्वातिनक्षत्रीयवृष्टिजलस्य विषये तथा चिन्तयतु. कस्यचित् दृष्ट्या जलाभावः अस्ति चेत् स्वातिनक्षत्रीयवृष्टिजलेन सः अभावः निवारितः भवति वा? कस्यचित् दृष्ट्या वृष्टिजलाभावः अस्ति चेत् पुनः स्वातिनक्षत्रीयवृष्टिजलेन सः अभावः निवारितः भवति वा?
आम् भवति.
हा स्वातिनक्षत्रीयवृष्टिजलाभावः चेत् स्वातिनक्षत्रीयवृष्टिजलेन अवश्यं निवारितः भवति खलु. तर्हि स्वातिनक्षत्रीयवृष्टिजलम् इति एकः एव आश्रयः, अभावाः त्रयः, प्रतियोगिताः कति? तिस्रः खलु. किन्तु आश्रयः तु एकः एव, प्रतियोगिताः भिन्नाः इति वार्ता. इति कृत्वा आश्रयभेदेन प्रतियोगिताभेदं ज्ञापयितुं क्लिष्टकरमस्ति, किञ्चित् क्लेशः अस्ति तत्र इति वार्ता. अवगतं वा? क्षीरस्य विषये यथा आसीत् पात्रम् इति आश्रयः, तद्दृष्ट्वा वयम् उक्तवन्तः एकं क्षीरम् अपरस्मात् भिन्नम् इति कृत्वा पात्रम् अवच्छेदकम् अभवत्. तर्हि तावत् सौलभ्यं नास्ति अत्र, इतोपि किञ्चित् आवश्यकमस्ति अवच्छेदकरूपेण. तद् किम् इति अधुना विषयः अग्रे आगच्छति. बुद्धम्? अस्तु तर्हि आना भगिनी अधस्तनचित्रं किञ्चित् विवृणोति किम्?
न जानामि.
अस्तु तर्हि चक्री महोदय प्रयत्नं करोति वा गमनात् पूर्वम्? अस्तु
किं भगिनि
तत्र अधस्तनचित्रं विवृणोति वा इति?
स्वातिनक्षत्रीयवृष्टिजलभावः
स्वातिनक्षत्रीयवृष्टिजलाभावे किमस्ति? अस्तु मम प्रश्नस्य उत्तरं ददातु प्रथमतया. स्वातिनक्षत्रीयवृष्टिजलाभावे किम् अस्ति?
अनियोगिता.
हा समीचीनं. पुनः स्वातिनक्षत्रीयवृष्टिजले किम् अस्ति? प्रतियोगिता खलु.
प्रतियोगिता अपि अस्ति वा?
एवं करोतु महोदय, विंशतितमपृष्ठं पश्यतु. एकं चित्रमस्ति उपरितनभागे विंशतितमे पृष्ठे, पश्यति वा? तद् किञ्चित् वदतु. वृष्टिजल
वृष्टिजलभाव अनुयोगिता.
महोदय चित्रं दृष्ट्वा वदतु. वृष्टिजलनिष्ठ प्रतियोगितानिरूपित अनुयोगिताश्रयः अभावः इति दत्तमस्ति खलु, पश्यति वा?
न भगिनि, न भगिनि.
विंशतितमपृष्ठे उपरितनभागे पश्यति किम्? पेज् 20.
हा वृष्टिजलं निष्ठा प्रतियोगिता क्षम्यतां भगिनि.
अस्तु नास्ति चिन्ता, अग्रे गच्छेम. तर्हि हा विजया भगिनी किञ्चित् चित्रस्य निरूपणं करोतु पेज् 22 मध्ये.
वृष्टिजलनिष्ठ प्रतियोगिता निरूपित अनियोगिता आश्रयः अभावः अनियोगिताश्रय अभावः.
हा समीचीनं भगिनि. अधुना 22 पेज् 22 मध्ये यदस्ति चित्रत्रयं तद् किञ्चित्
स्वातिनक्षत्रीयवृष्टिजल अभावः निश्च अनियोगिता निरूपित प्रतियोगिताश्रय स्वातिनक्षत्रीयवृष्टिजले एव न सर्ववृष्टिजले.
हा इति अवगच्छति खलु. स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगिता कुत्र अस्ति?
प्रतियोगिता वृष्टिजले एव अस्ति
न समीचीनं
नक्षत्रे वृष्टिजले
हा स्वातिनक्षत्रीयवृष्टिजले एव अस्ति अस्तु अग्रे
अग्रे स्वातिनक्षत्रीयवृष्टिजलनिष्ठप्रतियोगिता निरूपिता अनियोगितानिष्ठ स्वातिनक्षत्रीयवृष्टिजल अभावः
भगिनी अनुयोगिता निष्ठ इति न अधोगमनार्थम् आश्रयः इति वक्तव्यम् इति समीचीनं तत् सम्यक् आसीत् तत् समीचीनम् आसीत् किन्तु अत्र वार्ता का इत्युक्ते कस्य प्रतियोगिता कुत्र अस्ति इति वार्ता स्वातिनक्षत्रीयवृष्टिजलाभावस्य
स्वातिनक्षत्रीयवृष्टिजले प्रतियोगिता
अस्ति अस्तु अग्रिमचित्रम्
वृष्टिजल अभावः निष्ठ अनियोगिता निरूपिता प्रतियोगिताश्रय वृष्टिजले एव न तु कूपजले अन्यत्र वा
तस्य अर्थः कः
वृष्टिजल अभावः अनियोगिता तत्र
एकनिमिषः विभक्तीनां प्रयोगः नितरां करणीयः वृष्टिजले अभावः वृष्टिजलाभावे अनुयोगिता इति वक्तव्यं खलु तत्र
आधारभावने सप्तमे आगच्छति तत्र वृष्टिजल अभावे निष्ठ अनुयोगिता
अस्तु निष्ठा इति वदति चेत् सप्तमी प्रयोगः मास्तु अस्तु किन्तु वृष्टिजलाभावे अनुयोगिता अस्ति इति समीचीनं तया अनुयोगितया निरूपितप्रतियोगिता कुत्र अस्ति
मीरु माट्लाडुतुन्न व्यक्ति मी काल् नु होल्ड् लो उंचारु दयचेसि लैन् लो उंडंडि
अस्तु अस्तु बानचैतन्य महोदय अस्तु भगिनी वृष्टिजलाभावस्य प्रतियोगिता केवलं वृष्टिजले एव न तु अन्यत्र इति अवगच्छति वा अस्तु अग्रे गच्छतु अधुना
अग्रे चित्रमेव
अतः इति
अतः प्रतियोगितायाः आशयः विद्यते इति प्रतियोगिता अपि तत्र तत्र विलक्षणा इति ज्ञायते
किम् अवगतम्
प्रतियोगिता आश्रयः तत्र विद्यते इत्युक्ते तत्र भिन्नभिन्नम् अस्ति अवच्छेदक अवच्छेद्यकभावः इति प्रतियोगिता अपि तत्र तत्र विलक्षणा एव इति विलक्षणम् इत्युक्ते भिन्नः तादृशं नास्ति भिन्नः एव तत्र
आश्रयभेदेन प्रतियोगिता भिन्न भिन्नभिन्नस्थलेषु प्रतियोगिता अस्ति एका प्रतियोगिता तु स्वातिनक्षत्रीयवृष्टिजले अपरा तु वृष्टिजले इति कृत्वा इति कृत्वा तत्र विलक्षणा प्रतियोगिता इत्युक्ते भिन्ना प्रतियोगिता उभयत्र इति अस्तु अग्रे अग्रिमचित्रं किञ्चित्
सामान्य अभावः जलं नास्ति इति अनियोगिता निरूपित प्रतियोगिताश्रयः यथा कूपजले तथा वृष्टिजले स्वादिनक्षत्रे वृष्टिजले अपि
तत्र किम् अवगतम्
सामान्यभावः इति जलं नास्ति इति अनियोगिता तत्र प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले कूपे जले वा तथा वृष्टिजले वा अस्ति वा नास्ति वा इति तत्र प्रतियोगिता अस्ति
प्रतियोगिता सामान्यजलाभावस्य प्रतियोगिता कुत्र कुत्र अस्ति
कूपजले तटकजले इति सर्वेषु जलेषु अस्ति
अथवा वृष्टिजले स्वातिनक्षत्रीयवृष्टिजले खलु पश्यतु अत्र एका प्रतियोगिता वृष्टिजले स्वातिनक्षत्रीयवृष्टिजले अपि अस्ति अपि च अपरा प्रतियोगिता पुनः वृष्टिजले अस्ति त्रयः प्रतियोगिताः भिन्नाः आश्रयः एकः एव इति आगच्छति अतः आश्रयस्य आधारेण प्रतियोगितायाः भेदं स्थापयितुं दुःशकम् इति कृत्वा भेदस्थापनार्थम् अन्यत् किमपि अपेक्षितं तद् किम् इति अग्रे पश्येम. अस्तु अग्रे पठतु भगिनि. भगिनि
अहमेव वा?
हा भगिनि पठतु अग्रे अग्रिमपरिच्छेदं कृपया.
इह अस्याः प्रतियोगितायाः आश्रयः न विद्यते, किन्तु सर्वाणि जलानि इति आश्रयभेदात् इयं प्रतियोगिता अन्ययोः प्रतियोगितयोः भिन्ना अन्य इति न ज्ञायते. अतः तासां भेदसाधनाय अवच्छेदक अपेक्षा वर्तते. तत्र प्रतियोगितायाः आश्रयः न भिद्यते इत्युक्ते तत्र प्रतियोगिता ज्ञातुं तत्र अवच्छेद्यक कार्यं तत्र आश्रयः अस्ति, किन्तु सर्वाणि जलानि
तथा पठतु खण्डशः पठतु तदा अवगच्छति. प्रथमतया प्रतियोगितायाः आश्रयः न भिद्यते खलु सामान्यजलाभावः इत्यर्थः, किन्तु सर्वाणि जलानि इति आश्रयभेदात् इयं प्रतियोगिता अन्ययोः प्रतियोगितयोः भिन्ना इति न ज्ञायते इति अवगच्छति वा? किम्
आश्रयभेदात् इयं प्रतियोगिता आश्रयभेदात् तत् प्रतियोगिता ज्ञातुं न शक्नुमः तत्र, खलु भगिनि?
समीचीनम्.
अन्ययोः प्रतियोगितयोः भिन्ना एव तत्र प्रतियोगिता सामान्यजले कूपे जले वृष्टिजल स्वातिनक्षत्रे वृष्टिजले इति भिन्नाः एव तत्र प्रतियोगिता अन्याः इति न ज्ञायते. अन्याः इति अन्यपदार्थेषु न इति.
भगिनी अत्र सा वार्ता नास्ति, नितरां नास्ति. अत्र एका प्रतियोगिता अपरया भिन्ना इति केवलम् आश्रयभेदात् न ज्ञायते इति अवगच्छति वा? भिन्नः इति न ज्ञायते अतः अस्तु अग्रे गच्छतु. अतः
तासां भेदसाधनाय तत्र भेदकम् अस्ति इति स्थापनाय साधितुं कर्तुं शक्नुमः. किमर्थं चेत् अवच्छेदक अपेक्षा तत्र वर्तते. अवच्छेदकं कर्तुं अवच्छेदककरणीयम् इति तत्र अपेक्षा वर्तते. भिन्नं भिन्नभिन्नपदार्थेषु प्रतियोगिता अस्ति, तत्र आश्रयः अपि अस्ति इति अवच्छेदकभावः तत्र अपेक्षा एव वर्तते.
आश्रयं विना अपरस्य अवच्छेदकस्य अपेक्षा वर्तते. आश्रयेण प्रतियोगिताभेदं न ज्ञातुं शक्नुमः इति वार्ता. बुद्धं वा? अस्तु अग्रे शिवराम महोदय कृपया.
अत्र इदं ज्ञेयं प्रतियोगिनी यत् विशेषणं तथा एव पठनीयं न?
समीचीनं.
प्रतियोगिनि यत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकं, यथा जलं नास्ति इति अभावः उक्तः, जले च प्रतियोगिनि सन्ति जलत्वद्रव्यत्वसत्तादयोः धर्मः, परन्तु अभावकथनाय जलं नास्ति इति एव उक्तम् इति जलत्वेन एव जलस्य उल्लेखः कृतः, अथ तत् प्रतियोगिता अवच्छेदकम्. प्रतियोगिनी यत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकम् इति विवरणं करोतु भगिनि.
एवं करोतु, एवं करोतु, उदाहरणं वदतु तदनन्तरं स्पष्टं भवति. अग्रे गच्छतु.
यथा जलं नास्ति इति अभावः उक्तः, जले च प्रतियोगिनि सन्ति जलत्वद्रव्यत्वसत्तादयोः धर्मः. जलं नास्ति इति अभावः जलस्य अभावः जल अभावः हा जलं नास्ति इति वयं जलम् आवश्यकं वयं वदामः चेत् तस्य अभावः जल अभावः जले च प्रतियोगिनी सन्ति जलत्वद्रव्यत्वसत्तादयो धर्मः तर्हि जलस्य जले जलत्वद्रव्यत्व जलत्वसत्ता तथा द्रव्यत्वसत्ता एतयोः धर्मात्र प्रतियोगिनी वर्तते जले
हा समीचीनं तर्हि अत्र जलाभावस्य प्रतियोगी किम्
जलाभावस्य प्रतियोगिनी जलः जलं
प्रतियोगिनी न प्रतियोगी
हा प्रतियोगी
तर्हि सप्तमी विभक्तिप्रयोगः जले अथवा
जले,
जले प्रतियोगिनी के धर्माः वर्तन्ते
जले जलत्वं वर्तते द्रव्यत्वं जलत्वं तथा द्रव्यत्वम्
अपि च
सत्ता
हा वयं दृष्टवन्तः सामान्यम् इत्यस्य सत्ता इति एका जातिः अथवा धर्मः अस्तु तर्हि जलम् अस्ति प्रतियोगी तर्हि प्रतियोगिनी जले त्रयः धर्माः वर्तन्ते जलत्वं द्रव्यत्वं
सत्तात्वं
परन्तु किम्
परन्तु अभावकथनाय जलं नास्ति इति एव उक्तम् इति जलत्वेन एव जलस्य उल्लेखः कृतः किन्तु अभावकथनाय तत्र जलत्वस्य एव उल्लेखः कृतः
खलु
जलत्
इत्युक्ते अभावं कथं कथयति वाक्यं किं भवति
जलस्य अभावः जलाभावेन भवति
हा अथवा स्थूलाक्षरैः यथा अस्ति जलं नास्ति इति वदामः
जलं नास्ति
द्रव्यं नास्ति इति वदामः वा न
द्रव्यं वा सत्ता नास्ति इति वयं प्रायशः व्यवहारे न वदामः जलं नास्ति
जलं नास्ति इत्येव वदामः अतः किं जलत्वेनैव जलस्य उल्लेखः कृतः अवगच्छति वा
अधुना
जलत्वधर्मं स्वीकृत्य जलस्य उल्लेखः कृतः न तु द्रव्यत्वधर्मं स्वीकृत्य अथवा सत्ता इति इदानीं द्वितीयवाक्यं पुनः पठतु
प्रतियोगिनी यत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकम् प्रतियोगिनी यत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकम् नाम जलत्वं तथा द्रव्यत्वं तथा सत्तात्वं सत्तात्वं यत् अस्ति तत् अवच्छेदकरूपेण तत्र कार्यं करोति वा
परन्तु पश्यतु प्रतियोगिनी यद्विशेषणम् अस्तु भवता यदुक्तं तत् समीचीनं प्रतियोगिनी जले विशेषणत्रयमिति चिन्तयतु जलत्वं द्रव्यत्वं सत्ता इति तत् सम्यक् परन्तु प्रतियोगिनः षष्टिविभक्ति प्रतियोगिनः उल्लेखः केन रूपेण क्रियते
जलत्वरूपेण द्रव्यत्वरूपेण तथा सत्तात्वरूपेण
इति नास्ति खलु जलं नास्ति जलं
नास्ति
एकनिमिषं महोदय जलाभावः इति वदामश्चेत् जलम् इति उच्चारयामः किल जलम् इति उच्चारणं भवति जलं नास्ति जलाभावः तर्हि प्रतियोगी जलस्य उल्लेखः जलरूपेण क्रियते अथवा जलत्वधर्मेण क्रियते इति कृत्वा तद्विशेषणम् अथवा सः धर्मः अवच्छेदकम् अवगच्छति वा
किञ्चित् विवरणं करोतु
इदानीं चित्रम् अस्तु चित्रं पश्यतु तत्र जले किमस्ति
जले जलत्वमस्ति जले प्रतियोगिता अस्ति
हा जले जलत्वमस्ति जले प्रतियोगिता अस्ति अधुना कोऽपि वदति जलं नास्ति जलं नास्ति इति वदति चेत् तस्य मनसि किम् अस्ति जलं नास्ति इत्येव अस्ति खलु जलाभावः इत्येव वक्तुः मनसि अस्ति न तु द्रव्याभावः अथवा न सत्ताभावः इति किल वार्ता तर्हि जलमिति प्रतियोगी तस्य उल्लेखः जलम् इति पदम् उपयुज्य कृतं खलु? तदर्थमेव जलं जलाभावः इति वदामश्चेत् जलम् इति प्रतियोगी तस्य उल्लेखः कृतः जलत्वेन.
येन उल्लेखः कृतः सः एव अवच्छेदकः.
हा बहु समीचीनम्. येन जलत्वधर्मेण
सामान्यतः यस्य उल्लेखः भवति सः एव प्रतियोगितायाः अवच्छेदकम्. अधुना अवगतम्.
बहु समीचीनं. तर्हि अस्तु, चित्रस्य अधोभागे यदस्ति तत् पठतु.
तथा च यस्याः प्रतियोगितायाः भेदज्ञानम् अपेक्षितं तस्याः यत् अधिकरणं जलं तत्र स्थित्वा इदं जलत्वम् इयं प्रतियोगिता अन्यप्रतियोगिताभ्यः अन्या भिन्ना इति बोधयति. तथा च अस्याः प्रतियोगितायाः भेदज्ञान अपेक्षितं तस्याः यत् अधिकरणं जलं तत् स्थित्वा इदं जलत्वम् अवगतं भगिनि. कूपजलस्य अभावः कूपजले एव वा स्वातिनक्षत्रवृष्टिजले अभावः स्वातिनक्षत्रवृष्टिजले एव वृष्टिजलस्य अभावः वृष्टिजले एव.
हा इति तु अस्ति महोदय, परन्तु अत्र वार्ता का? प्रतियोगितायाः भेदज्ञापनम् अपेक्षितं खलु?
प्रतियोगितया तस्या च यत् अधिकरणं जलं प्रतियोगितायाः यस्य अधिकरणम् अस्ति यत् अधिकरणत्वजलं यत् अस्ति सः एव तस् भेदज्ञानार्थं
पुनः पठतु. यस्याः वदतु.
यस्याः प्रतियोगितायाः भेदज्ञानम् अपेक्षितं तस्याः यत् अधिकरणं जलं तत्र स्थित्वा इदं जलत्वम् इयं प्रतियोगिता अन्यप्रतियोगिताभ्यः अन्या भिन्ना इति बोधयति.
हा खण्डशः पठतु. प्रथमवाक्ये किमस्ति? यस्य प्रतियोगितायाः भेदज्ञापनम् अपेक्षितं.
यस्य प्रतियोगितायाः भेदज्ञानम् अपेक्षितम् अस्ति यस्याः तस्या यत् अधिकरणं जलं नाम तस्य आधार अधिकरणं नाम तस्य आधारजलं तत्र स्थित्वा इदं जलत्वम् इयं प्रतियोगिता अन्यप्रतियोगिताभ्यः भिन्नः नाम एकस्य अधिकरणम् अपरस्य अधिकरणं भिन्नः एकस्य
अधिकरणं. एकनिमिषः तत्र जले अस्तु, प्रतियोगितायाः अधिकरणं किम्?
प्रतियोगितायाः अधिकरणं जलं.
जलत्वस्य अधिकरणं किं?
जलमेव.
हा इति वार्ता. तत्र पदार्थद्वयम् एकस्मिन् अधिकरणे वर्तते किल? तदेव उक्तं, तस्याः प्रतियोगितायाः यद् अधिकरणं जलं तत्रैव किमस्ति? जलत्वम् अस्ति. तत्रैव स्थित्वा जलत्वं किं वदति? इयं प्रतियोगिता अन्यप्रतियोगिताभ्यः भिन्ना इति वदति. अवगतं वा? तर्हि प्रतियोगितायाः अवच्छेदं कं किं तत्र?
जलत्वमेव.
यतोहि जलत्वं वदति यत् अस्तु इयं प्रतियोगिता भिन्ना इति सूचयति. हा जलत्वावच्छिन्नप्रतियोगिता इति वदामः. अस्तु, तत्र अवच्छेदकः अवच्छेदकधर्मः कः?
जलत्वम् अवच्छेदकः.
हा अवच्छेद्य
जलमस्ति.
अवच्छेद्य इत्युक्ते यस्मिन् भिन्नता अस्ति सा खलु?
जलं
न, अत्र कस्यां भिन्नतां स्थापयितुम् इच्छामः वयम्?
जले एव.
प्रतियोगितायां खलु महोदय?
प्रतियोगितायां वयं भिन्नां स्थापयामः. तर्हि सः अवच्छेद्यः.
हा प्रतियोगिता
अवच्छेद्यः जलम् अवच्छेदकः.
हा इति एव वार्ता. उभयोः अधिकरणं किम्?
उभयोः अधिकरणं जलम्.
हा तर्हि एकस्मिन् एव अधिकरणे एतत् जलत्वं प्रतियोगितायाः अधिकरणे जलत्वं स्थित्वा किं करोति इयं प्रतियोगिता जले स्थिता प्रतियोगिता भिन्ना इति बोधयति इति कृत्वा जलत्वम् अवच्छेदकं प्रतियोगिता किम्
जलत्वम् अवच्छेदकं जलं जलत्वम् अवच्छेदकः
हा जलत्वम् अवच्छेदकं प्रतियोगिता किं तर्हि अवच्छेद्य
अवच्छेद्यः जलं तु अवच्छेद्यः आम् अवगतं
जलम् अवच्छेद्य अस्तु मनसि भवेत् यत् जलत्वम् अवच्छेदकम् इत्युक्ते जलत्वं भिन्नतां प्रदर्शयति अवच्छेदकं प्रतियोगितायां भिन्नता अस्ति इति सूचयति अतः प्रतियोगिता अवच्छेद्या अवच्छेद्य मनसि भवेत् वयं तु अवच्छेद्य अवच्छेदकभावः इति पठामः अधुना खलु अस्तु सर्वत्र प्रतियोगिता सर्वत्र अस्ति परन्तु प्रतियोगिता इयं प्रतियोगिता अपरस्याः भिन्ना इति कथं ज्ञायते इति विषयः अधुना
प्रतियोगितायाः मध्ये खण्डं भवति तर्हि सः
अवच्छेद्य
भिन्ना भिन्ना प्रतियोगिता भवति तत्कारणेन सः अवच्छेद्य
अपि च प्रतियोगिनी विद्यमानः धर्मः अवच्छेदकम् इति वदामः
विद्यमानधर्मः तु जलत्वमेव अस्ति
सम्यक् अग्रिमपृष्ठे पश्यन्तु अस्तु श्रीधरमहोदय चित्रद्वयमस्ति विवृणोति वा किञ्चित्
करोमि एवं वृष्टिजलं नास्ति इति अभावस्यापि वृष्टिजलं वृष्टिजलनिष्ठ वृष्टिजलत्वं वृष्टिजलनिष्ठप्रतियोगिता अत्र वृष्टिजलत्वं अवच्छेदकं प्रतियोगिता अवच्छेद्या
बहु समीचीनं महोदय अग्रे
अग्रे स्वातिनक्षत्रीयवृष्टिजलं वृष्टिजले अस्ति वयं स्वातिनक्षत्री
महोदय न श्रूयते अन्ये श्रोतुं शक्नुवन्ति वा श्रीधरमहोदयम् अहं न शृणोमि पुनः ध्वनिः गतः महोदय महोदय नितरां न श्रूयते श्रीधर महोदय न श्रूयते अस्तु शिवराम कुलकर्णि महोदय भवान् एव समापयतु
एवं वृष्टिजलं नास्ति इति अभावस्य अपि तच्चित्रं न
हा वदतु
एवं वृष्टिजलं नास्ति इति अभावस्य अपि वृष्टिजलनिष्ठवृष्टिजलत्वं वृष्टिजलनिष्ठप्रतियोगिता
हा तावत् पर्याप्तं नास्ति अत्र अवच्छेदकं किम् अवच्छेद्यं किम् इति वक्तव्यम्
अत्र वृष्टिजल अत्र किम् अवच्छेद्यः प्रतियोगिता यत् अस्ति सः अवच्छेद्यः अत्र वृष्टिजलम् अत्र जलत्वं तु अवच्छेदकः
वृष्टिजलत्वम् इति
वृष्टिजलत्वम् अवच्छेदकः वृष्टिजलत्वस्य प्रतियोगिता अस्ति सः अवच्छेदकः अग्रे एवं स्वातिनक्षत्रीयवृष्टिजलं नास्ति इति अभावस्थले अपि तत्रापि स्वातिनक्षत्रीय वृष्टिजलत्वम् अवच्छेदकः स्वातिनक्षत्रीयवृष्टिजलत्वप्रतियोगिता अवच्छेद्यः
अवच्छेद्या
स्त्रीलिङ्गस्य अवच्छेद्या
अवच्छेदकम् इति पुल्लिङ्गे भवेत् यतोहि जलत्वम् इति अस्ति. अस्तु तर्हि अधुना मनसि स्पष्टता अस्ति वा महोदय? प्रतियोगिता द्वयमस्ति खलु, एका प्रतियोगिता अपरस्याः भिन्ना इति केन आधारेण वक्तुं शक्यते इत्युक्ते तत्र प्रतियोगिनी विद्यमानधर्मस्य आधारेण वक्तुं शक्यते इति उत्तरम्.
अवगतम्?
अवगतं खलु.
अवगतं. स्वातिनक्षत्रीयवृष्टिजले स्वातिनक्षत्रीयवृष्ट्या एव जलस्य तत्र प्रतियोगिता अस्ति. सामान्यवृष्टिजले सामान्यवृष्टिजलस्य
भेदः अस्ति. किन्तु अत्र वार्ता का इत्युक्ते अवच्छेदकं किम् इति. अवच्छेदकं किं तत्र?
अवच्छेदकः तत्र जलमस्ति. जलत्वं तत्र अवच्छेदकः. प्रत्येकस्य प्रतियोगिनी वा प्रतियोगिता यत् अस्ति सः अवच्छेद्यः.
अवच्छेद्य यत्र तत्र. अस्तु, एवं चिन्तयतु, यत्र यत्र पुस्तकत्वं तत्र तत्र पुस्तकाभावस्य प्रतियोगिता खलु. यत्र यत्र जलत्वं तत्र तत्र जलाभावस्य प्रतियोगिता. यत्र यत्र तत्र तत्र इति वक्तुं शक्नुमः किल. तदर्थं पुस्तकत्वं जलत्वम् अथवा प्रतियोगिनी विद्यमानः धर्मः अवच्छेदकः भवति. प्रतियोगिता अवच्छेद्य इति. अस्तु, हा अग्रे श्रीधर् महोदय अधुना पठितुं शक्नोति वा?
श्रूयते वा?
हा अधुना समीचीनतया श्रूयते.
धन्यवादः. अत्र यद्यपि जलसामान्य अभावस्य प्रतियोगिता कूपजले इव स्वातिनक्षत्रीयवृष्टिजले अपि वर्तते, अतः आश्रयाः ते एव. तथापि सामान्य अभावस्य प्रतियोगितायाः अवच्छेदकं शुद्धं जलत्वं, वृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं वृष्टिजलत्वं, स्वातिनक्षत्रीय वृष्टिजला अभावस्य प्रतियोगितायाः अवच्छेदकं स्वातिनक्षत्रीयवृष्टिजलत्वमिति अवच्छेदकभेदात् सिद्धः प्रतियोगिताभेदः. अत्रैवम् अवच्छेद्या अवच्छेदक अभावः.
पुनः ध्वनिः गतः महोदय, किमर्थम् इति न जाने.
अत्र
हा श्रूयते. यत्किमपि कृतवान् अधुना तथैव भवतु.
अत्र यद्यपि
कथं पुनः श्रीधर् महोदय किम् अभवत्? न श्रूयते एव महोदय, किञ्चित् पश्यतु किम् अभवत् इति. अस्तु, सरला भगिनी अत्र साहाय्यं करोति वा?
आं भगिनि, जलसामान्यभावस्य प्रतियोगिता कूपजले इव स्वातिनस्यजले स्वातिनस्यवृष्टिजले अपि वर्तते, अतः आश्रयात् एव. तथापि सामान्यभावस्य प्रतियोगितायाः अवच्छेदकं शुद्धं जलत्वम्. इदानीम् जलसामान्यभाव तस्य प्रतियोगिता भवति कूपजले, स्वातिनस्य जल वृष्टिजले अपि वृष्टिजले त्रयोः जलेषु तस्य अभावस्य प्रतियोगिता अस्ति. किन्तु सामान्य अभावप्रतियोगिता तस्य अवच्छेदकं जलत्वम् एव, शुद्धं जलत्वम् इत्युक्ते तस्य कोऽपि विशेषः नास्ति. सामान्यभावस्य प्रतियोगिता केवलं जलत्वे अस्ति, जलत्वे धर्मेण
भगिनी. आम्, किञ्चित् परिष्कृत्य वक्तव्यं यतोहि प्रतियोगितायाः अवच्छेदकम् इति वदतु.
प्रतियोगितायाः अवच्छेदकं जलत्वम् अस्ति. जलत्वस्य कोऽपि विशेष न दत्तम् अस्ति अत्र वेद, यतः विशेष स्वातिनस्य जलत्वम् अस्ति वा वृष्टिजलत्वम् अस्ति वा सामान्यजलत्वम् अस्ति, केवलं जलत्वम् एव तस्य अवच्छेदक तस् सामान्यभावस्य प्रतियोगितायाः अवच्छेदकं धर्म अस्ति, अवच्छेदकम् अस्ति. अग्रे अस्ति वृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं वृष्टिजलत्वं यथा प्रकोष्ठे पूर्वम् उपरि प्रकोष्ठे अस्ति वृष्टिजलाभावस्य वृष्टिजल अस्ति वृष्टिजलत्वम् अपि वृष्टि जलत्व प्रतियोगिता अपि वृष्टिजलाभावस्य प्रतियोगिता सा वृष्टिजलत्वं भवति तत् प्रतियोगितायाः अवच्छेदकत्वम् अधो प्रकोष्ठे अस्ति स्वातिनस्य वृष्टिजल जले अस्ति प्रतियोगिता अपि स्वातिनस्य वृष्टिजलत्वं तत् प्रतियोगितायाः अवच्छेदकम् अस्ति स्वातिनस्य वृष्टिजलत्वम् इति प्रतियोगिताः कथं भेदं ज्ञातुं शक्नुमः तत् भवति तस्य जले या धर्म विद्यमानम् अस्ति तस्य धर्मेण अवच्छेदकं भवितुं शक्नोति यदा वृष्टिजले अस्ति वृष्टिजलत्वं स्वातिनस्य वृष्टिजले अस्ति स्वातिनस्य वृष्टिजलत्वम् इति तस्य धर्मेण अवच्छेदकम् आगच्छति प्रतियोगितायाः
सम्यक् भगिनि अधुना भवती यत् किमपि उक्तवती तदेव चित्रे अस्ति अस्तु चित्रं कृपया
अस्तु जलनिष्ठजलत्वं
अस्तु भगिनि भगिनि एवं वदतु किं कस्मिन् अस्ति इति एकवारं सामान्यवाक्ये
ओके जले अस्ति जलत्वम् अपि प्रतियोगिता अभावे अस्ति अनियोगिता इदानीं प्रतियोगिता अनियोगिता वामत अपि दक्षिण तत् तयो मध्ये भवति निरूप्यनिरूपकभाव अपि जलत्वे अस्ति अवच्छेदकता प्रतियोगितायाम् अस्ति अवच्छेद्यता तयो मध्ये अपि निरूप्यनिरूपकभाव अस्ति इदानीं कथं प्रतियोगितायाः जले भावः अस्ति तस्य प्रतियोगिता कथं वयं निरूपयामः तस्य विवरणम् अस्ति इति अस्मिन् चित्रे सो जलनिष्ठजलत्वं निष्ठ अवच्छेदकता निरूपति निरूपित अवच्छेद्यता आश्रय जलनिष्ठप्रतियोगिता निरूपिता अनियोगिता आश्रय अभाव
हा बहु समीचीनमस्ति भगिनि वस्तुतः यद्यपि भगिन्या सर्वम् उक्तम् अस्माकं मूलविषयः अस्ति चित्रस्य उपरितनभागः जलत्वे अवच्छेदकता अस्ति प्रतियोगितायाम् अवच्छेद्यता अस्ति तर्हि प्रतियोगिता कीदृशी भगिनि
प्रतियोगिता अस्ति जलनिष्ठ जलत्वं निष्ठ अवच्छेदकता अवच्छेद्यता आश्रय प्रतियोगिता
निरूपिता त्यक्तं भवत्या
आमां निरूपित
जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता अवच्छेद्यता
आश्रय प्रतियोगिता जलनिष्ठप्रतियोगिता
अथवा पुनः अवच्छेद्यतावती प्रतियोगिता इत्यपि वक्तुं शक्यते इत्येव मुख्यः विचारः जलत्वम् इति अवच्छेदकं जलत्वे अवच्छेदकता अस्ति इति कारणेन इयं प्रतियोगिता अवच्छिन्ना भवति इति कृत्वा जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती प्रतियोगिता इति आगच्छति अथवा लघु रूपेण जलत्वावच्छिन्न प्रतियोगिता इति वक्तुं शक्यते सर्वैः बुद्धं वा स्पष्टता अस्ति मनसि अस्तु किमपि न वदन्ति चेत्
स्पष्टता
अस्तु अग्रे राधिका भगिनी किञ्चित्
सर्वत्र चित्रेषु ऊर्ध्वगामिनीशरे निष्ठ इति अधोगामिनीशरे आश्रय इति तिरश्वीने निरूपित इति न्यायभाषया व्यवहर्तव्यं वयं तु जानीमः एव खलु
इतः एव अहं इत्युक्ते उक्तवती. ऊर्ध्वगामिनी इत्युक्ते यद् उपरि गच्छति तस्मिन् निष्ठा. अधोगामिनी इत्युक्ते यः शरः अधः गच्छति तस्मिन् आश्रयः. तिरश्चिने इत्युक्ते हारिज़ाण्टल् शरे. निरूपित इति न्यायभाषया व्यवहारं कुर्मः इति. अस्तु भगिनि अग्रे.
एवं च जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यताश्रय जलनिष्ठ प्रतियोगिता निरूपित अनुयोगिताश्रयः अभावः इति विवरणं भवति. अत्र तु अभावः कीदृशः इति यदि प्रश्नः अस्ति चेत् अभावः विवरणं तु दत्तमस्ति. इदानीं जलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावत् प्रतियोगिता निरूपित अनुयोगितावत् अनुयोगितावान् अभावः इति विवरणं दत्तमस्ति
इदानीं. बहु समीचीनं भगिनि. तर्हि भवन्तः अपि तथा प्रयत्नं कुर्वन्तु. आश्रयः इत्यस्य स्थाने वान् वति अथवा वत् इति स्थापयितुं शक्यते मतु प्रत्यययुक्तपदम्. अस्तु भगिनि अग्रे अग्रे अपि पठतु अथवा वदतु. इत्युक्ते अभावात् आरभ्य जलत्वपर्यन्तं गतं तद् किम् इति अग्रिम.
अभावनिष्ठ अनुयोगिता निरूपित प्रतियोगितानिष्ठ अवच्छेद्यता निरूपित अवच्छेदकतावत् जलत्वं.
समीचीनम् इत्येव अग्रे अस्ति. इदम् अभावात् इति एकवारं पठतु तद्.
इदम् अभावात् प्रभृति अपि वक्तुं शक्नुमः. अभावनिष्ठ अनुयोगिता निरूपित जलनिष्ठ प्रतियोगितानिष्ठ अवच्छेद्यता निरूपित अवच्छेदकताश्रयः जलत्वम् इति जलत्वं निरूपणं कृतवन्तः. इदानीम् एकमपि चित्रमस्ति.
अस्तु. जलत्वम् इति अवच्छेदकं तस्य निरूपणं कथं भवति इति भवती उक्तवती अधुना. एवमेव विजया भगिनी प्रयत्नं करोति वा अग्रिमचित्रे अभाव प्रथमतया वृष्टिजलत्वम् आरभ्य अभावपर्यन्तं गच्छतु.
वृष्टिजले वृष्टिजलत्वं निश्च अवच्छेदकता निरूपित अवच्छेद्यता निरूपित अनियोगिकाश्रय अभाव.
न क्रमेण गच्छतु. प्रथमतया वृष्टिजलनिष्ठ वृष्टिजलत्वं
वृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता प्रतियोगिता निरूपित
भगिनि एकनिमिषः. अवच्छेद्यता प्रतियोगिता तयोः मध्ये किं स्थापनीयं? किं पदम् आगच्छेत् तत्र?
जलत्वं
न अवच्छेद्यता. अधोगामिनिशरे किं पदम् आगन्तव्यं तत्र? सर्वत्र वयं वदामः आश्रय
अवच्छेद्य
अस्तु आरम्भतः अधुना कृपया वृष्टिजलनिष्ठ अवच्छेदकता
निरूपित अवच्छेद्यता आश्रय प्रतियोगिता निरूपित निरूपित अनियोगिताश्रय अभावः.
बहु समीचीनमस्ति भगिनि. अधुना अभावात् आरभ्य वृष्टिजलत्वपर्यन्तं गच्छति चेत्
अभावनिष्ठ अनियोगिता निरूपित प्रतियोगितानिष्ठ अवच्छेदकता निरूपित
प्रतियोगितानिष्ठेदकता. समीचीनतया पठतु. तत्र प्रतियोगितायां किमस्ति?
प्रतियोगितायां अनियोगिता
न भगिनि, प्रतियोगितायाम् अवच्छेद्यता अस्ति खलु प्रतियोगितायां,
प्रतियोगिता
एकनिमिष, प्रथमतया किं कस्मिन् भगिनि, किं कस्मिन् अस्ति इति वदतु एकवारं, वृष्टिजले किमस्ति?
वृष्टिजलत्वमस्ति,
अपि च
अवच्छेदकता,
अवच्छेदकता कुत्र अस्ति समीचीनतया तत्र पश्यतु, वृष्टिजले वृष्टिजलत्वम् अस्ति, अवच्छेदकता कुत्र? वदतु भगिनि, अवच्छेदकता कुत्र अस्ति? चित्रं दृष्ट्वा वदतु, वृष्टिजलत्वे अस्ति खलु,
वृष्टिजले निश्च अवच्छेदकता निरूपित अवच्छेद्यता
भगिनि, तथा नास्ति, इदानीमेव सरला भगिनी अपि च राधिका भगिनी उक्तवती, इतोपि एकवारम् अस्तु शिवराम कुलकर्णी महोदय विवृणोति वा?
अभावतः आरम्भं करणीयं
वा? न किं कस्मिन् एकवारं
वृष्टिजले वृष्टिजले वृष्टिजलत्वं वृष्टिजलनिष्ठ वृष्टिजलत्वं वृष्टिजले प्रतियोगिता वृष्टिजलनिष्ठ प्रतियोगिता अधुना वृष्टिजलत्वं निष्ठ अवच्छेदकता नाम वृष्टिजलनिष्ठ वृष्टि वृष्टिजलनिष्ठ वृष्टिजलत्वं निष्ठ अवच्छेदकता वृष्टिजलनिष्ठ प्रतियोगिता निष्ठ अवच्छेद्यता नाम प्रतियोगितानिष्ठ अवच्छेद्यता
इत्युक्ते सरलभाषया वदामश्चेत् वृष्टिजलत्वम् अवच्छेदकं तस्मिन् अवच्छेदकता प्रतियोगिता अवच्छेद्य तस्मिन् अवच्छेद्यता तावदेव
तर्हि वृष्टिजलनिष्ठ वृष्टिजलत्वं वृष्टिजलनिष्ठ वृष्टिजलत्वम् अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः वृष्टिजलत्वनिष्ठ प्रतियोगिता निरूपित अनुयोगिता अनुयोगिता आश्रयः अभावः
हा समीचीनं तर्हि अभावः कीदृशः इति आगतः अभावात् आरभ्य
अभावनिष्ठ अनुयोगिता निरूपित वृष्टिजलनिष्ठ प्रतियोगिता वृष्टिजलनिष्ठ प्रतियोगिता आश्रयः प्रतियोगितानिष्ठ अवच्छेदकता निरूपित
महोदय पुनः सहैव एकनिमिष सावधानतया प्रतियोगितायां किम् अस्ति अवच्छेदकता नास्ति प्रतियोगितायाम् अवच्छेद्यता अस्ति
अवच्छेद्यता अभावनिष्ठ अनुयोगिता निरूपित वृष्टिजलनिष्ठ प्रतियोगितानिष्ठ अवच्छेद्यता निरूपित वृष्टिजलत्वनिष्ठ अवच्छेदकता आश्रय वृष्टिजलत्वं
नाम द्विवारं वक्तव्यं नास्ति अस्माकं लक्ष्यं किम् इति पश्यतु वृष्टिजलत्वम् इति चेत् प्रतियोगितापर्यन्तम् आगत्य प्रतियोगितानिष्ठ अवच्छेद्यता निरूपित अवच्छेदकतावत् वृष्टिजलत्वम् इति
वक्तव्यम्
अस्तु अग्रे वाक्यं पठतु द्वितीये
द्वितीये वृष्टिजलत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रय वृष्टिजलनिष्ठ प्रतियोगिता निरूपित अनुयोगिताश्रयः अभावः
इति भवान् अधुना एव उक्तवान्
एवम्
अस्तु महोदय पठतु अग्रे
एवम् अभावनिष्ठ इत्यादि चिन्तनीयम् एवं स्वातिनक्षत्रीयवृष्टिजलभावस्थले अपि वक्तव्यम्
अस्तु भानुचैतन्यमहोदय प्रयत्नं करोति वा अग्रे वक्तुं भानुचैतन्यमहोदय अस्ति किम् अथवा श्रीधर् महोदय मैक् समीचीनमस्ति चेत् प्रयत्नं करोति वा?
आम् श्रूयते वा?
अधुना श्रूयते.
धन्यवादः. द्वितीये वृष्टिजलत्वनिष्ठ
तदभवत् महोदय. अन्तिमचित्रं पूरयतु तावदेव.
अन्तिमचित्रं रिक्तस्थानमस्ति.
तत्र किं किं भवेत् इति.
स्वाती नक्षत्रीय वृष्टिजल जलं निष्ठ स्वाती नक्षत्रीय वृष्टिजलत्वं निष्ठ अवच्छेदकता निरूपित अवच्छेद्यता आश्रयः प्रतियोगिता निरूपित अनियोगिता आश्रयः स्वाती नक्षत्र वृष्टिजल अभावः.
हा, बहु समीचीनमस्ति महोदय. सम्यक् अस्तु. अधुना अभावात् आरभ्य करोति वा?
स्वाती नक्षत्रीय वृष्टिजल अभाव निष्ठ अनियोगिता निरूपित प्रतियोगिता निष्ठ अवच्छेद्यता निरूपित अवच्छेदकता आश्रयः स्वाती नक्षत्रीय वृष्टिजलत्वं.
हा, तावद् तावदेव. स्वाती नक्षत्रीयवृष्टिजलत्वम् इति अवच्छेदकं तद् कीदृशम् इति भवता उक्तमेव. अस्तु, अग्रे वाक्यद्वयमस्ति, अग्रिमपृष्ठे किञ्चित् पठतु.
अत्र च अभ्यासाय पठसामान्यभावः नीलपटाभावः च ग्राह्यः. तत्र अवच्छेद अवच्छेदकभावः निरूपकभावः प्रतियोग्य अनुयोगिभावः च आलोचनीयः. अभ्यासाय लेखकः वदति पटसामान्यभावः नीलपटाभावः च.
एवमेव एवमेव यथा अधुना भवन्तः एव कृतवन्तः चित्राणि, तद्वत् गृहे कृपया चित्राणि रचयन्तु. अस्तु, चित्राणि रचयित्वा पटसामान्याभावः अथवा नीलपटाभावः इति स्वीकरोतु. नीलपटाभावः इति विशेषाभावः खलु, पटाभावः इति सामान्याभावः, उभयत्र प्रतियोगिता भिद्यते किल. अस्तु, श्रीधर् महोदय वदतु, पटसामान्यभावस्थले अवच्छेदकं किम्, अवच्छेद्यं किम् इति.
पटसामान्यभावः अवच्छेद्यं प्रतियोगिता पटसामान्यभावः.
हा, समीचीनं. प्रतियोगिता एव सर्वत्र अवच्छेद्या, यतोहि प्रतियोगितायां भिन्नतां प्रदर्शयितुम् इच्छामः खलु. प्रतियोगिता अवच्छेद्या पटसामान्यभावस्थले अवच्छेदकं किम्?
पटसामान्यं सामान्यत्वम्
अथवा पटत्वं. सम्यक्. अस्तु, नीलपटाभावस्थले.
नीलपटले अवच्छेदकं नीलपटत्वम् अवच्छेद्या नीलप्रतियोगिता.
हा, नीलपटाभावस्य प्रतियोगिता अवच्छेद्या इति भवति. अस्तु, केवलं विनोदार्थं कोऽपि अग्रिमचित्रं विवृणोति वा? पश्यन्तु, अग्रिमे चित्रे भागद्वयम् अस्ति. यथा अभ्यासमपि भवति, यथा अधुना वयं दृष्टवन्तः, अवच्छेदकता अस्ति, यज्ञदत्ता आसने उपविशति चेत् यज्ञदत्ते आधेयता अस्ति, आसने अधिकरणता अस्ति, तत्रापि अवच्छेदक अवच्छेद्यभावः स्थापयितुं शक्यते इति एव अग्रिमचित्रम्. कोऽपि कर्तुम् इच्छति वा?
यज्ञदत्ते आधेयता अस्ति, आसनं तस्मिन् अधिकरणा अस्ति, अधिकरणता आधेयता मध्ये निरूपय निरूपकभावः अस्ति. यज्ञदत्ते अपि आसने द्वयो मध्ये अवच्छेदक अवच्छेद्यता अस्ति तस्मिन्. सो यज्ञदत्तनिष्ठ यज्ञदत्तत्वं निष्ठ अवच्छेदकता निरूपिता अवच्छेद्यता यज्ञदत्तनिष्ठ आधेयता अवच्छेद्यता
वति इति वदतु.
अस्तु, यज्ञदत्तनिष्ठ यज्ञदत्तत्वं निष्ठ अवच्छेदकता निरूपिता अवच्छेद्यता वति यज्ञदत्तनिष्ठ आधेयता निरूपित आसननिष्ठ अधिकरणता भगिनी पुनः वदामि आसनत्वम्
अत्र अस्माकं मनसि प्रथमतया अस्माकं लक्ष्यं किम् इति भवेत्. अस्तु, अस्माकं
लक्ष्यं लक्ष्यमस्ति अधिकरणता अध्येयता मध्ये निरूप्यनिरूपकभावः.
हा, तत्र पश्यन्तु चित्रस्य भागद्वयमस्ति. प्रथमभागे अधेयता इत्यतः अधिकरणता पर्यन्तम् एरो गच्छति, शरः गच्छति, यतोहि तयोः मध्ये अस्ति निरूप्यनिरूपकभावः, खलु?
अस्तु, पुनः वदामि. अस्तु, यज्ञदत्तनिष्ठ यज्ञदत्त्वं निष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती यज्ञदत्तनिष्ठ अधेयता निरूपित आसननिष्ठ आसनत्वं निष्ठ अवच्छेदकता निरूपित निरूपित अवच्छेद्यता अवच्छेद्यतावती आसननिष्ठ अधिकरणता.
समीचीनं, तर्हि साधितं भगिन्या. एवमेव, तर्हि किमपि नास्ति. उपरि गमनार्थं निष्ठ इति स्थापयन्तु, अधोगमनार्थम् आश्रयः वति इति स्थापयन्तु. अस्तु, अपि च हारिज़ोण्टल् एरो तिरश्चीनः शरः कुत्र गच्छति इति पश्यतु. यत्र निरूप्यनिरूपकभावः अस्ति तयोः मध्ये एव हारिज़ोण्टल् एरो अथवा तिरश्चीनः शरः भवेत्. आदे अत्र अस्मिन् चित्रे अपि आधेयता अपि च अधिकरणता तयोः मध्ये अस्ति निरूप्यनिरूपकभावः, ससम्बन्धिकपदार्थद्वयं तदर्थम्. अस्तु, एवमेव गृहपाठत्वेन यदा कुर्वन्ति पटसामान्याभावः नीलपटाभावः इत्यस्य विषये तथैव कुर्वन्तु. पटः इति अधः भवति, पटे पटत्वम् इति अस्ति, अपि च पटे प्रतियोगिता अपि भवति. पुनः पटत्वे अवच्छेदकता, प्रतियोगितायाम् अवच्छेद्यता, पटाभावे अनुयोगिता. प्रतियोगिता अनुयोगिता तयोः मध्ये तिरश्चीनशरः भवति, यतोहि तौ ससम्बन्धिकौ पदार्थौ इति कृत्वा तत्रैव निरूपिता इति वक्तव्यम्. अस्तु
भगिनि, यदि अवच्छिन्ना वयं योजयामः कथं भवति? यज्ञदत्त्वं यज्ञदत्तनिष्ठ यज्ञदत्त्वम् अवच्छिन्ना अधेयता भवति इति भवति.
तावदेव
अस्ति, अधेयता निरूपति आसनत्वच्छिन्ना अधिकरणता.
हा, तावदेव भगिनि.
अस्तु अस्तु,
अग्रे अग्रे परिशीलयामः लघुना मार्गेण अवच्छिन्ना इति.
भवती उक्तवती क्षीरमपि क्षीरम् अवच्छेद्यं, प्रतियोगिता अपि अवच्छेद्या, आधेयता अपि अवच्छेद्या, सर्वे
अवच्छेद्या इत्युक्ते, समीचीनः प्रश्नः महोदय. अवच्छेद्या इत्युक्ते यस्मिन् भेदं स्थापयितुम् इच्छामः सः अथवा सा. तावदेव, प्रतियोगितायां भेदं स्थापयितुं वयम् इष्टवन्तः खलु. तिस्रः प्रतियोगिताः आसन्, एका प्रतियोगिता अपरस्याः भिन्ना इति कथं वक्तुं शक्नुमः इति प्रश्नः आसीत् किल. तदर्थं प्रतियोगिता अवच्छेद्य. अधुना आधेयता अवच्छेद्या अस्ति, अधिकरणता अवच्छेद्या अस्ति. किमर्थम् इत्युक्ते आधेयता बह्व्यः आधेयताः भवन्ति. यज्ञदत्ते आधेयता भवति, उत्पीठिकायां न क्षम्यताम् उत्पीठिकायां दूरवाणी अस्ति चेत् दूरवाण्याम् आधेयता भवति किल. भिन्नभिन्नेषु स्थलेषु आधेयता भवन्ति, परन्तु एका एव आधेयता न, भिन्नाः आधेयताः इति खलु वार्ता. तर्हि आधेयतायां यदि भेदस्थापनम् इच्छामः तदा आधेयता अवच्छेद्या भवति. अपि च यः कोऽपि धर्मः भवति समान अधिकरणे तद् अवच्छेदकं भवति, यथा यज्ञदत्तत्वं. तावदेव. वस्तुतः अस्य प्रयोगः अग्रिमसप्ताहे पश्यामः. पृथिवी अस्ति, पृथिव्यां गन्धः अस्ति इति वयं दृष्टवन्तः प्रथमवर्गे एव किल. तत्र पृथिव्याम् अधिकरणता अस्ति, गन्धे आधेयता अस्ति इत्यादिकम् आगच्छति. तदर्थमेव किञ्चित् पृष्ठभूमिकारूपेण अत्र प्रदर्शितवन्तः. अस्तु
अस्तु अस्तु
भगिनि, भगिनि अवच्छेदकता इत्युक्ते तत्र भिन्नं कर्तुं शक्नुमः. अवच्छेदकता भिन्नं कण्ठं कर्तुं शक्नुमः. अवच्छेद्यता इत्युक्ते तत्रापि भिन्नं कर्तुं शक्नुमः खलु.
प्रथमतया
अवच्छेद्यता किम् अस्ति?
हा, शृणोतु, अवच्छेदकता इत्युक्ते भगिनि शृणोतु, अवच्छेदकः अवच्छेदकः इत्युक्ते यथा गायकः इति वदामः, यः कोऽपि गायति गायकः, यः कोऽपि नयति, यः कोऽपि अवच्छेदयति सः अवच्छेदकः, अवच्छेदनं करोति इति चिन्तयतु, यः कोऽपि कार्यं करोति तस्मात् नुल् इति प्रत्ययम् उपयुज्य अवच्छेदकः इति वदामः, अवच्छेदके अवच्छेदकता इति धर्मः, अपि च यस्यां भिन्नतां प्रदर्शयितुम् इच्छामः सा अवच्छेद्य, अथवा यस्मिन् भिन्नतां प्रदर्शयितुम् इच्छामः सः अवच्छेद्यः इति कृत्वा, भिन्नता यत्र अस्ति तत्र अवच्छेद्यता अस्ति, भिन्नतां यः प्रदर्शयति सः अवच्छेदकः, तस्मिन् अवच्छेदकता अस्ति. अवगतं वा?
अवच्छेदकता इत्युक्ते भिन्नं तत्र प्रदर्शयितुं शक्नुमः.
वदतु.
अवच्छेदेत तत्र
भिन्नता अस्ति इति चिन्तयतु. इति वार्ता, एकत्र एकस्मिन् भिन्नता अस्ति, तां तां भिन्नताम् अपरः कोऽपि प्रदर्शयति, सः एव अवच्छेदकः अथवा तदेव अवच्छेदकम् इति. बुद्धं वा? अस्तु, सम्यक्. तर्हि अस्तु, तर्हि कृपया गृहपाठरूपेण अभ्यासं कुर्वन्तु, नो चेत् विचारः जटिलः भवति अग्रे गत्वा. वस्तुतः जाटिल्यं नास्ति, किञ्चित् अभ्यासः अपेक्षितः, तावदेव. अस्तु, तर्हि प्रश्नाः न सन्ति चेत् विरमामः. शुभरात्रि.
धन्यवादः.
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 धन्यवादः.